एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। प्रधानमन्त्री केपी शर्मा ओली कथयति देशस्य आर्थिक स्थितेः सुधाराय संविधान संशोधनस्य च विषययोः आवश्यक विमर्शनम् जायमानम् वर्तते। विराटनगर विमानस्थलस्य अति विशिष्ट कक्षात् वैर्भवनस्य क्रमे प्रधानमन्त्री ओली एवम् अगदत्। ह्यः एव बीपी कोइराला स्वास्थ्य विज्ञान प्रतिष्ठानस्य त्रयोदशम् दीक्षान्त समारोहम् सम्बोधयन् प्रधानमन्त्री ओली नेपालस्य स्वास्थ्य संस्थासु चिकित्सकानाम् विद्यार्थीनाम् च स्थानानि वर्धयितुम् क्षेत्रमेतत् प्रभावकारी सुशासनयुक्तम् च विधातुम् च सर्वकारः प्रतिबद्धोऽस्तीति अवोचत। तदवसरे प्रधानमन्त्री ओली प्रतिवेशिनी भारते उत्पादितानि परीक्षितानि च औषधानि आनीय नेपाली ऋणजनान् वितरिष्यन्ते इति अगदत्। राष्ट्रपतेः रामचन्द्र पौडेलस्य संयुक्त राष्ट्रसंघस्य महासचिवेन एन्टेनियो गुटरेस इत्यनेन सह संक्षिप्तम् मेलनम् सम्भूतम् वर्तते। अजरबैजान देशस्य बाकु नगरे जलवायु परिवर्तन सम्बद्ध संयुक्त राष्ट्रसंघीय संरचना महासन्धेः पक्षराष्ट्राणाम् 29 सम्मेलने सहभागी भवितुम् कतारस्य दोहा मार्गेण अजरबैजान देशस्य बाकु नगरे गमनस्य क्रमे विमाने एतयोर्मध्ये सम्भूते मेलने जलवायु परिवर्तनस्य कारणेन उत्पन्न समस्यायाः विषये संक्षिप्तम् विमर्शनम् अवदिति राष्ट्रपतेः पौडेलस्य संचार परामर्शदाता किरण पोखरेलः अज्ञापयत। बाकु नगरे सम्पद्यमाने अद्य स्वच्छ इति द्विदिवसीय सम्मेलने राष्ट्रपतिना पौडेलेन उच्चस्तरीय सत्रस्य विश्वनेतृणाम् जलवायु कार्य शिखर सम्मेलने सम्बोधनस्य कार्यक्रमः निर्धारितोऽस्ति। सम्मेलनस्य क्रमे नेपालेन स्वस्य विषयेषु विश्वसमुदायस्य ध्यानाकर्षणम् विधातुम् स्वकार्तिकस्य 28 दिवसे राष्ट्रपतेः पौडेलस्य नेतृत्वे पृथग उच्चस्तरीय सत्रस्य सञ्चालनस्य कार्यसूची निर्धारिता अस्ति। सर्वकारेण उद्योगी व्यवसायिभ्यः ग्रहणीयम् विद्युच्छुल्कम् 15 दिनानाम् अभ्यन्तरे ग्रहीतुम् निर्णीतम् वर्तते। संचार सूचना प्रविधि मन्त्रालये ह्यः आयोजिते पत्रकार सम्मेलने मन्त्री परिषदः उपवेशस्य निर्णयान् सार्वजनिक कुर्वाणः सर्वकारस्य प्रवक्ता संचार सूचना प्रविधि मन्त्री च पृथ्वी सुब्बा गुरूङ 15 दिनानाम् अभ्यन्तरे उद्योग व्यवसायिभ्यः ग्रहणीयम् विद्युच्छुल्कम् ग्रहीतुम् विद्युच्छुल्कस्य अप्रदानस्य कारणेन विद्युद्विहीनेषु उद्योगेषु 24 घण्टानाम् अभ्यन्तरे विद्युत् प्रवाहम् कर्तुम् च निर्णीतमिति असूचयत। सर्वोच्च न्यायालयस्य पूर्व न्यायाधीशस्य गिरीश चन्द्रलाल इत्यस्य संयोजकत्वे विद्युच्छुल्क सम्बद्ध विवाद समाधानस्य कृते संघटितेन अनुसन्धानायोगेन गतवैशाखस्य 23 दिवसे प्रस्तुतम् प्रतिवेदनम् सार्वजनिकर्तुम् ऊर्जो जलस्रोत सेचन मन्त्रालयाय स्वीकृतिम् प्रदातुमपि मन्त्रिपरिषदा निर्णीतम् वर्तते। उपवेशेन स्वास्थ्य सुरक्षण समितेः अध्यक्षस्य डाक्टर गुणराज लोहनी इत्यस्य त्यागपत्रम् स्वीकृतम् अस्तीति च प्रवक्ता गुरूङ असूचयत। तदवसरे संचार सूचना प्रविधि मन्त्री गुरूङ समाजे राजनीतौ च दृष्टम् भ्रष्टीकरणम् आपराधिकरणम् च रोद्धुम् वर्तमान सर्वकारः दृढसंकल्पितोऽस्तीति अवोचत। सर्वकारस्य प्रवक्ता च संचारमन्त्री गुरूङ कोशी प्रदेशस्य विधि मन्त्रिणी अग्रे वर्धिता दण्डन प्रक्रिया संकेतः एवास्तीति सूचयन् अनुचित क्रियाकलापे संलग्नाः एकेऽपि दण्डयिष्यन्ते एवेति प्रावोचत। बागलुङ जनपदस्य जैमिनी नगरपालिकायाः अष्टमडा क्षेत्रस्य छिन्तीस्थानात् जनपद मुख्यालयम् बागलुङ बजारस्थानम् प्रति आगच्छत् पिकअप भ्यानयानम् व्यार्थला स्थाननिकटे दुर्घटितम् सत् मृताः 5 एव जनाः सत्यापिताः वर्तन्ते। जैमिनी पालिकायाः सप्तमडा क्षेत्रस्य जैदीस्थानस्य छिस्तीस्थानस्य च सीमावर्तिनी व्यार्थला स्थाननिकटे पिकअप भ्यानयानम् यः दुर्घटितम् सत् 5 जनाः मृता इति जनपद प्रहरी कार्यालयस्य सूचनाधिकारी प्रहरी निरीक्षक केशव थापा अज्ञापयत। प्रहरी निरीक्षकस्य थापाविधस्य अनुसारेण मृतकेषु जीपयान चालकः जैमिनी नगरपालिकायाः अष्टमवडा क्षेत्रस्य छिस्ती केवई स्थानस्य 38 वर्षीय महेन्द्र पुन तत्स्थानीया एव 20 वर्षीया रश्मि श्रीस पञ्चाशत वर्षीया नन्दकली पुन सप्तदश वर्षीया नीरज श्रेष पञ्चसप्तति वर्षीया कुलप्रसाद श्रेष्ठ वर्तन्ते। वस्तुवाहकं पिकअप भ्यानयानं मार्गात आसन्न पञ्चशत मीटर मृतमद निपतितमिति प्रहरी निरीक्षक थापा असूचयत। नेकपा माओवादी केन्द्रेण आगामिनः मार्गशीर्ष मासस्य षोडशे दिवसे सम्पत्स्यमानाय उपनिर्वाचनाय अवस्तरस्य समितिभ्यः परामृष्टानि प्रत्याशिनां नामानि अनुमोदितानि वर्तन्ते। नेकपा माओवादी केन्द्रस्य ह्यः उपविष्टेन केन्द्रीय कार्यालयोपवेशेन आगामिनः मार्गशीर्ष मासस्य षोडशे दिवसे सम्पत्स्यमानस्य स्थानीय स्तरस्य उपनिर्वाचनस्य प्रयोजनाय प्रदेश जनपद समितिभ्यः परामृष्टानि प्रत्याशिनां नामानि अनुमोदितानीति दलोपाध्यक्ष प्रवक्ता च अग्नि प्रसाद सापकोटा अज्ञापयत। उपवेशेन निर्वाचने सफलताम् अधिगन्तुम् योजनायाः कार्यक्रमस्य च निर्माणाय दलस्य सर्वे नेतारः कार्यकर्तारश्च अनुरुद्धाः वर्तन्ते। दलेन आगामिनः पौष मासस्य द्वितीय दिवसे केन्द्रीय समिते उपवेशम् आयोजयितुम् च निर्णीतमिति दलप्रवक्ता सापकोटा अबोधयत्। अद्य हरिबोधनी एकादशी। हिन्दू धर्मावलम्बिभिः भगवतः विष्णोः पूजाराधन पुरस्सरं व्रतोपवासादिभिः समाद्रियते। पौराणिक कथनानुसारेण पुरा मुर नाम्नो दैत्यस्य आतंकात् देवान् मोचयितुं भगवता विष्णुना महान् संघर्षो विहितः। संघर्षावधौ विश्रान्तिम् अधिगन्तुं बदरियाश्रमे स्थितां हैमवती गुहाम् एत्य निद्रितस्य श्रीविष्णोः शरीराद् उत्पन्नया परमसुन्दर्या कन्यया घातितस्य मुर दैत्यस्य शरीरं पृथिव्यां सशब्दं पतितम्। तस्मादेव शब्दात् हरि उत्थित इति घटनायाः स्मरणे अस्मिन् दिने हरिबोधनी एकादशी सम्मान्यते। अपर पौराणिक मान्यतायाम् आषाढ शुक्लस्य एकादश्या हरिशयनीतः कार्तिक शुक्ल हरिबोधिनी एकादशी पर्यन्तम् मासचतुष्टयम् यावद् भगवान् विष्णुः शेष शयनम् आश्रयति। अस्मिन् अवधौ विहितम् चातुर्मास्यानुष्ठानम् सातिशयम् फलदायी भवतीति विश्वस्यते। अनुष्ठानमेतच्च अस्मिन्नेव दिने समाप्तिम् एति। परम्परानुसारेण आषाढ शुक्लस्य एकादश्याम् रोपितानाम् तुलसी विरुधाम् अस्याम् तिथौ विशेषेण पूजनपूर्वकं स्व उद्यापनं विधीयते। अधिकार दुरुपयोगानुसन्धानायोगं शक्ति सम्पन्नं निष्पक्षं स्वतन्त्रं च विधातुं सांसदाः बलं ददति। प्रतिनिधिसभायाः राज्य व्यवस्था सुशासन समितौ अधिकार दुरुपयोगानुसन्धानायोगस्य अष्टचत्वारिंशदुत्तर द्विसहस्रतम विक्रम वर्षीयम् अधिनियमं संशोधयितुं निर्मितं विधेयकमाश्रित्य विहिते विमर्शने संशोधनकर्तारः सांसदाः आयोगेन राजनीतेः छायायां न पतनीयम् इति बलं प्रादुः। तदवसरे सांसदाः सर्वकारीय कार्य कार्यालयेषु निकायेषु च जायमानस्य भ्रष्टाचारस्य विषये प्रभावकारिणः अनुसन्धानस्य अभावस्य दशायाम् आयोगस्य कार्यक्षेत्रे नैयक्षेत्रमपि समाविष्टं सद् अर्थतन्त्रं दुर्बलं भविष्यतीति चिन्तां प्राकटयन्। नगरीय विकास मन्त्री प्रकाशमान सिंह निगदति राष्ट्रिय विभूतेः नेपाल संवत्सरस्य प्रवर्तकाच शंखधर साक्फा विधात नेपाली समाजेन प्रेरणा ग्रहणीया। शंखधर साक्फा दिवसस्य अवसरे नेपाल सम्बत नुद राष्ट्रिय समारोह समित्या ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री सिम्ब साक्फा विधेन तात्कालिक नेपाली समाजे सामाजिक सुधारकस्य रूपेण अतुलनीयम् योगदानं प्रदत्तमस्तीति अस्मरत। उपप्रधानमन्त्री सिम्ब तात्कालिक समये नेपाली समाजम् ऋणमुक्तम् विधातुम् योगदानं प्रदत्तवान् इति चर्चयन् साक्फा सामाजिक न्याय पक्षपाती आसीदिति अवोचत। निर्वाचन आयोगेन स्थानीय स्तरस्य उपनिर्वाचनाय मुख्य निर्वाचनाधिकृताः निर्वाचनाधिकृताश्च निर्धारिताः वर्तन्ते। आयोगस्य प्रवक्तु सहसचिवस्य नारायण प्रसाद सापकोटाभिधस्य अनुसारेण आगामिनः मार्गशीर्ष मासस्य षोडशे दिवसे सम्पत्स्यमानाय उपनिर्वाचनाय मुख्य निर्वाचनाधिकृताः निर्वाचनाधिकृताश्च नियुक्ताः सन्ति।